अथ पंचम स्कंद अथ एकादशोध्याय ब्राह्मण उवाच अको विद को विदवाद वादान वदस्यथो नातिविदाम्बरिष्ठ न सूरयो हि व्यवहार मेनम तत्वा विमर्शेन सहा मनन्ति तथैव राजन उर्गारहमेध वितान विद्योर्विजृम्भितेषु न वेदवादे स्वितत्ववाद प्रायेण शुद्धो न चकास्ति साधु न तस्य तत्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् स्वप्ने निरुक्त्या गृहमेधि सौख्यम् न जस्य हेयानिमित्तम् स्वयम् स्यात् यावन्मनो रजसा पुरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् चेतोभिराकुतभिरातनोति निरङ्कुशम् कुशलम् चेतरम् वा स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा बिभ्रत् पृथङ्नामभिरूपभेदमन्तर्बहिष्टम् च पुरस्तनोति दुःखम् सुखम् व्यतिरिक्तम् च तीव्रम् कालोपपन्नम् फलमाव्यनक्ति आलिङ्ग्य माया रचितान्तरात्मा स्वदेहिनम् संसति चक्रकूटः तावान्नयम् व्यवहारः सदा विक्षेत्रज्ञ साक्ष्यो भवति स्थूल सूक्ष्मः तस्मान् मनोलिङ्गमदो वदन्ति गुणा गुणत्वस्य परावरस्य गुणानुरक्तम् व्यसनाय जन्तो क्षेमाय नैर्गुण्यमथो मनः स्यात् यथा प्रदीपो घृतवर्तिमश्नम् शिखा सधूमा भजति यन्यदाश्वम् पदम् तथा गुणकर्मानुबद्धम् वृत्तिर्मनः श्रयतेऽन्यन्न तत्त्वम् एकादशासन मनसो हि वृत्तयः आकूतयः पञ्च धियोऽभिमानः मात्राणि कर्माणि पुरम् च तासाम् वदन्ति एकादशवीरभूमिः गन्धा कृतिस्पर्शरसश्रवांसे विसर्गरत्यर्त्यभिजल्पशिल्पः एकादशम् स्वीकरणम् ममेति सज्जामहम् द्वादशमेक आहु द्रव्यस्वभावाशयकर्मकालैरेकादशामि मनसो विकारः सहस्रशतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः क्षेत्रज्ञ एता मनसो विभूतिर्जीवस्य माया रचितस्य नित्यः आविर्हितः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः क्षेत्रज्ञयात्मा पुरुषः पुराणः साक्षात् स्वयम् ज्योतिरजः परेशः नारायणो भगवान् वासुदेवः स्वमायात्मन्यवधीयमानः यथा निलस्थावरजङ्गमानाम् आत्मस्वरूपेण निविष्ट ईषेत् एवम् परो भगवान् वासुदेवः क्षेत्रज्ञात्मेदमनुप्रविष्टः न जावदेताम् तनुभिर्नरेन्द्र विधूय मायाम् वैनोदयेन विमुक्तसङ्गोजितसर्षपत्नो वेदात्मतत्त्वम् भ्रमति इह तावत् न जावदेतन्मनयात्मलिङ्गम् संसारतापवपनम् जनस्य यच्छोकमोहामयरागलोभ वैरानुबन्धम् ममताम् विधत्ते भ्रातृव्यमेनम् तददभ्रवीर्जम् उपेक्षयाधितमप्रमत्तः गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकम् स्वयमात्ममोषम् इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे रघुगण संवादे एकादशोध्याय।